ईशैकैव हि वेदनायदचलं ज्ञानं स्वयं वेद्यते निर्भेदोदित वेद्य वेदक बला देकं सदा नाकुलै नैवान्यागत वेदनैव हि भवेत् तद्भिः कुतो ज्ञानिनो निःशङ्कः सततं स्वयं ससहजं ज्ञानं सदा विन्दति।